अथ चतुर्थः पादः रसाभ्यां नोणः समानपदे अट्कुप्वाङ्नुं व्यवायेऽपि पूर्वपदात् संज्ञायामगः वनं पुरगा मिश्रका सिद्ध्रका शारिका कोटराग्रेभ्यः प्रनिरन्तःशरे क्षुप्लक्षाम्रकार्ष्यखदिरपीयूक्षाभ्यो संज्ञायामपि विभाषौषधिवनस्पतिभ्यः अह्नोदन्तात् वाहनमाहितात् पानं देशे वा भावकर्णयोः प्रातिपदिकान्तनुं विभक्तिषु च एकाजुत्तरपदेणः कुमति च उपसर्गादसमासेऽपिणोपदेशस्य हिनुमीना आनिलोट् नेर्गदनदपतपदघुमास्यति हन्ति याति वाति द्राति प्साति वपति वहति शाम्यति चिनोति देग्धिषु च शेषे विभाषा कखादावशान्त उपदेशे अनितेः अन्तः उभौ साभ्यासस्य हन्तेरत्पूर्वस्य वमोर्वा अन्तरदेशे अयनञ्च छन्दश्रुतवग्रहात् नश्च धातुस्थोरुषुभ्यः उपसर्गाद् बहुलं कृत्यचः नेर्विभाषा हलश्चेजुपधात् इजादेस्सनुमः वा निंसनिक्षनिन्दाम् नभा भूपूकमिगमिप्यायी वेपाम् षात्पदान्तात् नशेषान्तस्य पदान्तस्य पदव्यवायेऽपि क्षुभ्नादिषु च स्तोश्चुनाश्चुः ष्टुनाष्टुः न पदान्ताट्टोरनाम् तोषि शात् यरोनुनासिकेऽनुनासिको वा अचोरहाभ्यां द्वे अनचि च नादिन्याक्रोशे पुत्रस्य शरोचि त्रिप्रभृतिषु शाकटायनस्य सर्वत्र शाकल्यस्य दीर्घादाचार्याणां झलां झषि अभ्यासे चर्चा खरि च वावसाने अणोप्रगृह्यस्यानुनासिकः अनुस्वारस्य ययि परसवर्णः वापदान्तस्य तोर्लि उदस्थास्तम्भोः पूर्वस्य झयोहोऽन्यतरस्याम् षश्छोटि हलो यमां यमिलोपः झरो झरिसवर्णे उदात्तादनुदात्तस्य स्वरितः नोदात्तस्वरितोदयमगार्ग्यकाश्यपगालवानाम् अ रसाभ्यामुभौष्टुनोदस्थाष्टौ इति चतुर्थः पादः इत्यष्टमोऽध्यायः ओ